इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। ऐषमो भारत एआई इम्पैक्ट समिट इति समुपवेशनस्य अवसरे प्रधानमंत्री नरेन्द्र मोदी लिक्टेन्स टीनस्य स्लोवाक गणराज्यस्य श्रीलंकायाः मॉरिशस देशस्य संयुक्त राष्ट्रामेरिकायाश्च शीर्ष नेतृभिः साकं कृतवान् द्वैपाक्षिकाणि मन्त्रणोपवेशनानि। प्रधानमन्त्रिणा सेवातीर्थमध्ये एआई डीपटेक स्टार्टअप इत्यनयोः सीईओ अधिकारिभिः साकं कृतानि गोलमञ्चोपवेशनानि भारतस्य आवश्यकतानां अनुरूपं समाधानस्य विकासनार्थं कृतः आग्रहः। नवदिल्ल्याम् आयोजिते इंडिया एआई इम्पैक्ट समिट इति सम्मेलने भारतदेशेन संयुक्तराज्यामेरिकादेशेन च पैक्स सिलिका इति साहमत्यपत्रे कृतानि हस्ताक्षराणि। सर्वोच्चन्यायालयेन पश्चिमबंगराज्ये एसआईआर इति मतदातृसूचीनां विशेष संशोधन कार्यक्रमाय निर्वाचनायोगस्य साहाय्यार्थं वर्तमान पूर्व जनपद न्यायाधीशानां नियुक्तेः निर्देशः प्रदत्तः। अपि च आईसीसी 20-20 विश्वचषक क्रीडायाम् अद्य सायंकाले ग्रुप बी इत्यस्य अन्तिमस्पर्धायाम् ऑस्ट्रेलिया दलम् ओमान दलेन सह श्रीलंका देशे प्रतिस्पर्धां करिष्यति। अथ वार्ताः विस्तरेण। 26,000 इंडिया एआई इम्पैक्ट शिखर सम्मेलनावधौ प्रधानमन्त्रिणा नरेन्द्र मोदिना लिचटेन्स्टीन देशस्य राजकुमारेण अलोइस इत्यनेन सह द्वैपाक्षिकोपवेशनं कृतम्। व्यापारः, निवेशः, एआई नवान्वेषणं, कौशलविकासेत्यादिषु क्षेत्रेषु सहकार्यं वर्धयितुं द्वावपि सहमतौ अभवताम्। नवदिल्लीनगरे प्रधानमन्त्री नरेन्द्र मोदी अद्य एआई इम्पैक्ट समिट इत्यस्य सम्मेलनस्य अवसरे स्लोवाक गणराज्यस्य राष्ट्रपतिना पीटर पेलेग्रिनी इत्यमुना सह द्वैपाक्षिकीं मन्त्रणां कृतवान्। उभयोः नेत्रोः मध्ये भारत स्लोवाक देशयोः सम्बन्धानां सुदृढीकरणाय विस्तृतः विचार विनिमयः अभवत्। कृत्रिम बुद्धिमत्ता, नवोन्मेषः, प्रौद्योगिकी, व्यापारः, निवेशः चेत्यादिषु क्षेत्रेषु सहयोग विस्तारस्य विषयोऽपि प्रमुखतया चर्चितः। प्रधानमन्त्री उक्तवान् यत् भारतं कृत्रिम बुद्धिमत्तायाः उदयोन्मुख प्रौद्योगिकीय क्षेत्रेषु वैश्विक सहकार्य वृद्धये प्रतिबद्धमस्ति। उभौ नेतारौ परस्परं विश्वासस्य, समान लोकतांत्रिक मूल्यानां च आधारेण सम्बन्धान् नूतन उच्चतां प्रतिनेतुं सहमतौ अभवताम्। नवदिल्ल्याः हैदराबाद भवने प्रधानमन्त्री नरेन्द्र मोदी अद्य श्रीलंका लोकतांत्रिक गणराज्यस्य राष्ट्रपतिना अनुरा कुमार दिशा नायके इत्यमुना सह द्वैपाक्षिकोपवेशनम् आचरितवान्। अस्यां मन्त्रणायाम् उभयोर्मध्ये भारत श्रीलंका देशयोः सम्बन्धानां सुदृढीकरणाय विस्तृतः विचार विनिमयः अभवत्। आर्थिक सहकार्यं, विकास साहमत्यं, सम्पर्क परियोजनाः, क्षेत्रीय स्थैर्य सम्बन्धाः विषयाश्च प्रमुखतया चर्चिताः। राष्ट्रपतिना दिशानायकेन कठिन आर्थिक परिस्थितिषु भारतदेशेन प्रदत्तस्य साहाय्यस्य कृते कृतज्ञता प्रकटिता। प्रधानमन्त्री मोदी पड़ोसी प्रथम इति प्रतिवेशी प्रथम नीत्याः अन्तर्गतं श्रीलंका देशं प्रति निरन्तरं सहकार्यस्य प्रतिबद्धतां साम्रेडितवान्। उभौ नेतारौ परस्परं विश्वासस्य, लोकतांत्रिक मूल्यानां, क्षेत्रीय शान्तेः च आधारेण द्विपक्षीय सम्बन्धान् नूतन उच्चतां प्रतिनेतुं संकल्पमपि कृतवन्तौ। नवदिल्लीनगरे राष्ट्रिय राजधान्यां भारत मण्डपमित्यत्र समायोजितस्य इंडिया एआई इम्पैक्ट समिट 2026 इति सम्मेलनस्य चतुर्थे दिवसे प्रधानमन्त्री नरेन्द्र मोदी उद्योग प्रौद्योगिकीय जगतां प्रमुख नेतृभिः सह समनुष्ठितं एकं महत्वपूर्ण गोलमञ्च मन्त्रणोपवेशनम् अध्यक्षितवान्। अस्याः मन्त्रणायाः मुख्य लक्ष्यं कृत्रिम बुद्धिमत्तायाः भविष्यदिशा, तस्याः वैश्विक उत्तरदायित्वं तथा भारतस्य डिजिटल नेतृत्वस्य अवसराणां विषये व्यापक संवादस्य स्थापना आसीत्। प्रधानमन्त्री उक्तवान् यत् कृत्रिम बुद्धिमत्ता अद्य विश्वे ऐतिहासिक परिवर्तनस्य प्रमुख शक्तिरेव दृश्यते। अतः अस्याः प्रौद्योगिक्याः विकासः सतत मानवकल्याणस्य दिशि एव नियोजनीयः। अमुना सबलं प्रतिपादितं यत् प्रौद्योगिक्याः परमलक्ष्यं केवलम् आर्थिकविकासः न भवेत्, अपि तु सर्वेषां समावेशनं, सर्वेभ्यः समान अवसरप्रदानं च स्यात्। अस्यां मन्त्रणायां विश्वस्य प्रमुखप्रौद्योगिकीयक्षेत्राणां मुख्यकार्यकारी अधिकारिणः, नवाचारसंस्थाः, उद्योगजगतः विशिष्टप्रतिनिधयश्च सहभागिनः अभवन्। तैः सह एआई प्रणालीनां नैतिकता, सुरक्षा, पारदर्शिता, उत्तरदायित्वं चेति विषयेषु गम्भीरविमर्शो अजायत्। एतस्मात् पूर्वं प्रधानमन्त्रिणा सम्मेलनस्य औपचारिक उद्घाटनमपि कृतं, यस्मिन् बहवो राष्ट्रनेतारः, प्रौद्योगिकी विशेषज्ञाश्च सहभागिनः अभवन्। अस्मिन् वर्षे एआई फॉर ह्यूमन वेलफेयर इति भावनया सह मानव विजन इति मानवकेन्द्रित संकल्पना विशेष रूपेण प्रस्तुता अभवत्, या नैतिक प्रौद्योगिकीय विकासं पारदर्शितां च प्रोत्साहयति। भारतस्य प्रयासाः एआई प्रौद्योगिकीं सरलां, समावेशिनीं च कृत्वा वैश्विक संसाधनरूपेण कृत्रिमबुद्धिमत्तायाः विकसनं लक्षयन्ति, येन नूतन जीविका सृजनं, शिक्षाविस्तारणं, नवाचारवर्धनं च सशक्तया साध्येत। सम्मेलनमिदं सन्देशम् अयच्छत् यत् कृत्रिमबुद्धिमत्तायाः विकासः केवलं प्राविधिकोपलब्धेः न, अपि तु मानवकेन्द्रित प्रगतिशील चिन्तनस्य प्रतीकभूतं तत्त्वमस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय मंत्री अश्विनी वैष्णव इंडिया एआई इम्पैक्ट समिट इति सम्मेलनावसरे गूगल अल्फाबेट संस्थयोः मुख्य कार्यकारी अधिकारिणा सुंदर पिचाई महोदयेन सह मिलितवान्। अस्मिन् मेलने कृत्रिम बुद्धिमत्ता, अंकीय नवोन्मेषः, प्रौद्योगिकीय सहकार्यं चेत्यादिषु विषयेषु उभाभ्याम् अपि विचार विनिमयः विहितः। अत्रावसरे उभावपि जनौ भारतस्य एआई विकासं, प्रतिभा संवर्धनं, वैश्विक सहकार्य विस्तारं च प्रोत्साहयितुं संकल्पितवन्तौ। ऐषमः इंडिया एआई इम्पैक्ट समिट इति सम्मेलनस्यावसरे पैक्स सिलिका इति साहमत्यपत्रके हस्ताक्षरानन्तरं केन्द्रीयमंत्री अश्विनी वैष्णव अवदत् यत् अद्य विश्वं भारतदेशं विश्वासं करोति। सः उक्तवान् यत् भारतं बौद्धिक सम्पदाधिकाराणां सम्मानं कुरुते। अस्माकं देशे विशालाः कुशल प्रतिभासमूहाः विद्यन्ते। युगपदेव भारतस्य विदेशनीतिः सदैव विश्वासनिर्माणाय समर्पिता आसीत्। एतेषां कारणानां फलरूपेण भारतं वैश्विक प्रौद्योगिकीय सहकार्यक्षेत्रे विश्वसनीय सहभागीरूपेण प्रतिष्ठितम् अस्ति। मन्त्रिमहोदयः एतदपि अवदत् यत् कृत्रिम बुद्धिमत्ता क्षेत्रे भारतं न केवलं प्राविधिकीं क्षमतां संवर्धयति, अपि तु उत्तरदायित्वपूर्णं मानवकेन्द्रितं च विकासमार्गम् अनुसरति। पैक्स सिलिका इति साहमत्यं भारतस्य नवोन्मेष शक्तेः, वैश्विक सहकार्यस्य, सुदृढ नीति प्रणाल्याः च प्रमाणमस्ति। अरुणाचल प्रदेश मिजोरम राज्ययोः राज्यस्थापना दिने राष्ट्रपतिना द्रौपदी मुर्मू महोदया शुभाशंसाः प्रदत्ताः। भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू महोदया अद्य अरुणाचल प्रदेश राज्यस्य तथा मिजोरम राज्यस्य राज्यस्थापना दिवसस्य पावनावसरे तयोः राज्ययोः निवासिभ्यः हार्दिकाः शुभाशंसाः प्रेषितवती। अमितशाहः अद्य असम राज्यस्य कछार जनपदे वाइब्रेंट विलेजेस इति कार्यक्रमस्य द्वितीयं उपक्रमं उद्घाटयति। सर्वोच्चन्यायालयेन अद्य पश्चिमबङ्गप्रदेशे मतदातृसूच्यां विशेषगहन संशोधनार्थं निर्वाचनायोगस्य सहयोगाय पूर्वसेवारतानां जनपद न्यायाधीशानां नियुक्त्यर्थं निर्दिष्टम्। मुख्यन्यायाधीशः सूर्यकान्तः, न्यायमूर्तयः जॉयमाल्या बागची, विपुल एम पंचोली च इत्येतेषां पीठेन राज्ये विशेषगहन संशोधन प्रक्रियायाः समापनं सुनिश्चेतुम् अनेके नूतनाः निर्देशाः प्रदत्ताः। अन्ते क्रीडावार्तायाम्, आईसीसी 20x20 विश्वचषक क्रीडायाम् अद्य सायंकाले ग्रुप बी इत्यस्य अन्तिमस्पर्धायाम् ऑस्ट्रेलिया दलम् ओमान दलं सम्मुखीकरिष्यति। इति वार्ताः।